इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका सुषमा कुमारी। आदौ मुख्य वार्ताः। लोकसभा निर्वाचनस्य चतुर्थ चरणात्मकीय प्रचारः अद्य सायं समाप्तिं प्रति यास्यति। चतुर्थ चरणेऽस्मिन् नवराज्यानां केन्द्र शासित प्रदेशस्य 96 आसनेषु मई मासे 13 दिनांके मतदानं भविष्यति। विदेशमन्त्री डॉ एस जयशंकर अवोचत् यत् अभिव्यक्तेः स्वतन्त्रतायाः अर्थः पृथक्तावादस्य समर्थनस्य स्वतन्त्रता नास्ति। सिंगापुरस्य प्रधानमन्त्रिणा ली सिएन इत्यनेन देशस्य प्रगतौ वैदेशिक प्रतिभानां योगदानस्य प्रशंसा कृतास्ति। ह्यः रात्रौ असाधारण शक्तिशाली सौर धूलि युत झंझावात कारणात् ऑस्ट्रेलियातः ब्रिटेन देशं यावत् आकाशीय विद्युत् दृग्गोचरी जाता। अपि च क्रीडा वार्तायां मिस्र देशे विश्व स्क्वैश चैम्पियनशिप इति प्रतिस्पर्धायां भारतीय क्रीडकेन रमित टंडनेन विजय पुरस्सरं प्रारम्भः विहितः। लोकसभा निर्वाचनस्य चतुर्थ चरणात्मकीय प्रचारः अद्य सायं समाप्तिं प्रति यास्यति। चतुर्थ चरणेऽस्मिन् नवराज्यानां केन्द्र शासित प्रदेशस्य 96 आसनेषु 13 दिनांके मई मासे मतदानं भविष्यति। चरणेऽस्मिन् आन्ध्रप्रदेशस्य 25, बिहार राज्यस्य 5, झारखण्डस्य 4, मध्यप्रदेशस्य 8, महाराष्ट्रस्य 11, ओडिशायाः 4, तेलंगानायाः 17, उत्तरप्रदेशस्य 3, पश्चिमबंगालस्य 8, जम्मूकश्मीरस्य आसनमेकं समाविष्टः। विभिन्न राजनीतिक दलानां शीर्षनेतारः जनसभाः कुर्वन्ति। मध्यप्रदेशे चरणेऽस्मिन् देवास उज्जैन मंदसौर रतलाम धाम इंदौर खारगोन खंडवा इत्येतेषु निर्वाचनक्षेत्रेषु मतदानं भवितम्। प्रधानमंत्री भारतीय जनता पार्टी इति दलस्य वरिष्ठ नेता नरेन्द्र मोदी च ओडिशायाः बोलांगीर क्षेत्रे अद्य एकस्यां जनसभायां राज्यस्य मुख्यमंत्री नवीन पटनायकस्य कट्वालोचना कृता। विदेशमन्त्री डॉ एस जयशंकर अवोचत् यत् अभिव्यक्तेः स्वतन्त्रतायाः अर्थः पृथक्तावादस्य समर्थनस्य स्वतन्त्रता नास्ति। कनाडादेशे पृथक्तावाद सम्बद्धाः घटनाः प्रति संकेतं विधाय तेनोक्तं यत् पृथक्तावादस्य हिंसायां च निर्बाध समर्थनं कर्तृभ्यः चरमपन्थिभ्यः कनाडादेशस्य राजनीतौ संरक्षणं विद्यते। अपि च विदेशमन्त्री अवोचत् यत् प्रत्येकं राष्ट्रं प्रतिवेशिभिः देशैः सह उचित सम्बन्धान् इच्छति, परं सम्प्रति चीनेन देशेन सह भारतस्य सम्बन्धाः सामान्याः न सन्ति, यतो हि सीमायां शान्तौ बाधा समुत्पन्नास्ति। विषयेऽस्मिन् भारतं चीनदेशेन सह अनवरतं संवादं विदधाति। अपि च उक्तं यत् भारतम् अस्मिन् विषये समाधानाय परिचर्चां कुर्वन् अस्ति। सिंगापुरस्य प्रधानमन्त्रिणा ली सिएन इत्यनेन देशस्य प्रगतौ वैदेशिक प्रतिभानां योगदानस्य प्रशंसा विहितास्ति। सिंगापुरस्य वार्ताभिकरणेन सह संवादे तेनोक्तं यत् भारतीय प्रौद्योगिक संस्थानस्य भारतीय प्रबन्धन संस्थानस्य च स्नातकाः बृहत् संख्यायां सिंगापुरे कार्यम् आचरन्ति। अपि चोक्तं यत् भाविन्याम् अपि तेषां सेवाः यथावत् प्रवर्तयिष्यन्ति। अवधेयमस्ति यत् ली सिएन लूंग इत्यस्य कार्यकालः अस्य मासस्य 15 दिनांके पूर्णं भविष्यति। संस्कृत वार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः सम्प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ च न्यूज ऑन एआईआर इति चलदूरभाषीयतन्त्रांशेऽपि उपलब्धो भविष्यति। ह्यः रात्रौ असाधारण शक्तिशाली धौर धूलियुत झंझावात कारणात् ऑस्ट्रेलियातः ब्रिटेन देशं यावत् आकाशीय विद्युत् दृग्गोचरी संजातास्ति। एषः झंझावातः प्रयदित् 2000 वर्षे समायात हेलोवीन इति नामधेय झंझावातात् अनन्तरं साम्प्रत यावत् सर्वाधिक शक्तिशाली झंझावातो अनुमितः। एषा भयावही स्थिति यदा उत्पद्यते तदा सूर्यस्य बाह्य आवरणस्य गुरुत्वाकर्षण क्षेत्र प्लाज्मा च बृहन् मात्रिक स्रावितो जातः। एतस्मात् कारणात् बहुषु स्थलेषु अन्तर्जाल उपग्रह विद्युत् गृहाणां च कार्यजातं दुष्प्रभावितं जातम्। अमेरिकीय ऋतु विज्ञान विभागानुसारेण आगामिषु समयेषु एतादृश्यः परिस्थितयः उत्पद्यन्ते एव। भारतेन संयुक्त राष्ट्र महासभायां फिलिस्तीन राष्ट्रस्य पूर्ण सदस्यत्वेन चयनस्य पक्षे मतदानं विहितम्। गतदिने संयुक्त अरब अमीरातेन उपस्थितौ प्रस्तावे 43-उत्तरैकशतं देशै मतदानं कृतम्। कश्मीर उपत्यकायाम् आरक्षिभिः शोपियां जनपदे द्वौ आतंकिनौ निगडितौ। आधिकारिक स्रोतोभिः सूचितं यत् आरक्षिभिः सैन्यबलैः सह कृते अन्वीक्षणे एतौ निगडितौ जातौ। उभौ अपि आतंकिनौ शोपियां जनपदस्य बाबा मोहल्ला क्षेत्रस्य निवासिनौ स्तः। उभौ विरुध्य हरिपोरा आरक्षिस्थात्रे प्राथमिकी अपि पंजीकृत्य अन्वीक्षणं प्रारब्धम्। कांग्रेस महासचिवा प्रियंका गांधिना तदीय दलस्य प्रशासनैः देशे जनजातीय समुदायानां रक्षार्थं अनुसूचित जाति अनुसूचित जनजाति अत्याचार परक निवारण निधिनियम पैसा इति अधिनियम पंचायती राज अधिनियम वनाधिकार अधिनियम मनरेगा सदृश योजनाः प्रभावीकृताः। अद्य उत्तरी महाराष्ट्रस्य जनजातीय बहुल नंदुरबार जनपदे एकस्यां जनसभायां तया मणिपुर हिंसायां एनडीए प्रशासनस्य विचारधारायां कट्वालोचनापि विहिता। प्रियंका गांधिना भणितं यत् नरेन्द्र मोदी प्रशासनं हाथरस सदृश घटनानां पदक विजेत्री महिला मल्ल क्रीडानाम् अभ्याचनापि विहिता। मिस्रदेशे विश्व स्क्वैश चैम्पियनशिप इति प्रतिस्पर्धायां भारतीय क्रीडनकेन रमित टंडनेन विजय पुरस्सरं प्रारम्भो विहितः। विश्व अंकतालिकायां 36 स्थानधारको क्रीडकोऽयं प्रथम स्तरे अमेरिकायाः फराज खानं पराजित्य विजयम् अधिगतम्। एषः एकमात्र क्रीडको अपि वर्तते यः एतस्यां प्रतियोगितायां भागं ग्रहीष्यति। रमितः आगामि प्रतिस्पर्धायां विश्वस्य 7 अंकीय क्रीडनकेन इंग्लैंड देशीय मोहम्मद एल शोरबागीम अपि सम्मुखीकरिष्यति। निशा दहिया पेरिस ओलंपिक प्रतिस्पर्धायाः कृते चिता वर्तते। स्पर्धा विजेत्री एषा पंचमी महिला मल्लयोद्धी वर्तते। ह्यः तुर्कीय नगरस्य इस्तांबुल स्थले संजाते विश्व ओलंपिक पागुपंत चक्रे निशा 68 किलोमीटर भारवर्गे उपान्त्य चक्रे रोमानिया देशीय अलेक्जेंड्रा एंजलम पराजितवती। एतत् वार प्रथमं भविष्यति यदा 5 भारतीय महिलाः मल्ल क्रीडायां ओलंपिक स्पर्धायां स्पर्धिष्यन्ति। इतः प्राक् पंघाल विनेश फोगाट अंशु मलिक ऋतिका हुड्डा स्पर्धायां समाविष्टाः अवर्तन्त। आईपीएल क्रिकेट स्पर्धायां मालिकायां अद्य मुंबई इंडियंस कोलकाता नाइट राइडर्स दलं सम्मुखीकरिष्यतः। कोलकातायां इडन गार्डन क्रीडांगणे एषा स्पर्धा सायं 7 आरप्स्यते। गतरात्रौ क्रीडितायां स्पर्धायां गुजरात दलेन चेन्नई दलं 25 धावनांकैः पराजितम्। संयुक्त राष्ट्र संघेन प्रोक्तं यत् अफगानिस्ताने जलपूर कारणात् मृतकानां संख्या 200 संजातास्ति। भारतीय ऋतु विज्ञान विभागेन देशस्य मध्य पूर्व भागे अथ च दक्षिण प्रायद्वीप क्षेत्रे सोमवासरं यत् मेघ गर्जनेन सह प्रबल वृष्टिः अनुमानितास्ति। श्वः यावत् पश्चिम बंगाले सिक्किमे च तीव्रवातेः बिहार झारखण्डयोः अनुमानः अपि अभिव्यक्तः। इति वार्ता।